रामग्ने वसुपतिम् वसूनामभिप्रवन्ते अध्वरेषु राजन् प्रजापाजम् वाजयन्तो जजे माभिष्यामपृच्छुतीर्मर्त्यानाम् अव्यमानग्निरगः पिता नो विभुर्विभावा सुदृशी को अस्मे सुगार्गवत्याः सविषो दिदीह्यस्मद्या आत्संमीमिहिश्रवांसि विशाम् कविम् विस्पतिम् मानुषीणाम् शुचिम् पावकम् घृतपृष्ठमग्निम् त्रिगोदारम् विश्वमिदम् दधिद्धे स देवेषु वनते वार्याणि युषस्वाग्रयिलाया सजोषायत मानो रश्मिभिः सूर्यस्य युषस्वनस्समिधम् जातवेदा च देवान्धविरद्याय वक्षि युष्टोदमू नादिधिर्दुरोणजिमन्नो यज्ञमुपजाहि विद्वान् विश्वाग्ने अभियुजो विहत्या शत्रु यतामाभरा भोजनानि वधे न दस्यम् रहि राजयस्वजः कृण्वारस्तन्वे हे स्वायैः निदर्षियत्सहसस्पुत्र देवान् स्वो अग्ने पाहिनृतमवाजे अस्मान् वयम् ते अग्नमुक्तैर्विधेम वयम् भव्यैः पावकभद्रशोचे अस्मे रयम् विश्ववारांसमिन् वास्मे विश्वानिद्रवीणानि धेहि अस्माकमग्ने अध्वरम् जोषस्वसूनोद्भृढस्वहव्यम् वयम् देवेरु सुकृतस्यामशर्मानस्त्रिवरूथेन पाहि विश्वानिलो दुर्गः जातवेदस्यन्धम् न नावादुरिदादिपर्षि अग्ने अत्रिवन्नवजाघ्नानोऽस्माकम् बोध्यमिता तनूनाम् यस्त्वा हृदा कीरिणामन्यमानो मत्यम् मर्त्यो जोहवीणि जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमस्याम् यस्मै त्वम् सुकृते जातवेदपुलोकमग्ने गृणवस्योरम् अश्विनम् सपुत्रिणम् वीरवन्तम् गोमनन्तम् ऋजुम् न सते स्वस्ति।